अस्तु अस्माकं गृहे अस्ति शब्दनिरूपणम् अपि तु शब्दस्य विभागाः इन्द्रियाणां प्राप्यकारित्वम् इत्यादयः अद्यतनपाठविषयाः. पूर्वस्मिन् सप्ताहे शब्दस्य निरूपणवाक्यं किम् इति दृष्टम् अस्माभिः. तस्य निरूपणवाक्यम् एवं यत् श्रोत्रग्राह्यो गुणः शब्दः आकाशे एव वर्तते इति. अस्तु, स्वरूपमादाय द्विविधः वर्णः ध्वनिः च. वर्णः उत्पद्यते यदा जिह्वायाः संयोगः विशिष्टमुखस्थलेन सह भवति. विलक्षणक्रमात्मकवर्णसमूहः व्यवहारयोग्यं पदं जनयति. पदसमूहः शक्तिग्रहे सति ज्ञानबोधकं वाक्यं जनयति इति दृष्टवन्तः. शब्दस्य अनन्तरविभागः अस्ति, प्रकारः अस्ति ध्वनिः इति. ध्वनिः यद्यपि शाब्दप्रमां न जनयति, तथापि कुत्रचित् अनुमितेः हेतुर् भवति. कथम् इति अपि उदाहरणेन सह वयं दृष्टवन्तः. अस्तु, कारणम् आदाय शब्दस्य विभागः त्रिविधः. केन कारणेन शब्दोत्पत्तिः भवति इति दृष्टं चेत् संयोगजः, विभागजः, शब्दजः इति दृष्टम्. सरला भगिनी, किञ्चित् वदति वा कारणम् आदाय उदाहरणानि?
यथा संयोगज कारणे भवति वर्णात्मज, यथा भवती उक्तवती मुखे विशिष्टस्थले यदा जिह्वा तालु मूर्धं वा उष्णं दन्तमसि स्पर्शं करोति तद् वायुः यदि बहिः गच्छति तद् संयोगवर्णं उत्पद्यते, विशिष्टवर्णम् उत्पद्यते. तत् एकं उदाहरणम् अस्ति. द्वितीय उदाहरणम् अस्ति करहस्तेन जायमान ध्वनिः आगच्छति, ध्वन्यात्मक तत् अस्ति संयोगस्य कारणं. द्वितीयविभागस्य कारणं यदि शब्दं जन्यते यदा वंशे पाठ्यमाने शुष्कवृक्षम् अपि यदि भङ्गं भवति तस्य अवयवाः भङ्गं भवति तद् ध्वनिः आगच्छति विभागेन, तत् अस्ति द्वितीयविभाग द्वितीयकारण. तृतीयमस्ति शब्दज शब्द. वयं प्रायः अद्य पठामः
दर्शयामः.
कथं वृक्षभङ्गः कथम् अस्ति भगिनि?
शुष्कवृक्ष यदि अस्ति तद् शुष्कवृक्षः, शुष्कवृक्ष वा कपि वृक्षस्य कोऽपि अवयवः पर्णात् भवति यदि द्वे भागे भङ्गं करोति तद् ध्वनिः आगच्छति.
तत्र पुस्तके नास्ति न? तत्
अस्ति अस्ति, उदाहरणेन अस्ति. तत्र वंशः इति वृक्षस्य उदाहरणं दत्तमासीत् पुस्तके. वंशः इत्युक्ते बेम्बू, बेम्बू केन् इति. यदि वंशस्य अवयवः शुष्कः भवति तदा तस्य यदा तस्य तं पाठ्यते तदा ध्वनिः उत्पद्यते. तत्तु विभागजः इति
विभागशब्दः विभागजशुद्धः वंशे पाठ्यमाने
इत्युक्ते तस्य यदा तस्य भङ्गं कुर्मः चेति इति अस्तु 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 समीचीनम् आं तर्हि
पिधीयते इत्यस्य अर्थं किम्
कुत्र अस्ति
द्वारं पिधीयते पिधीयते
अस्मिन् पाठे अस्ति पिधानं करोतु इत्युक्ते इत्युक्ते
उद्घाटयतु
करपत्रे अस्ति करपत्रे अस्ति अर्थं न जानामि इत्यस्य उक्तम् इत्यस्मात्
पिदधातु इत्युक्ते तस्य न उद्घाटयतु इति तस्य विपरीतपदम् अस्ति उद्घाटनस्य विपरीतपदं
न उद्घाटयतु
न आमामाम्
श्रोतुं न श्रोतुं दृष्ट्वा कोऽपि प्रश्नः अस्ति पृच्छामि
आमाम् ओ भवती शृणोति वा अद्य
न तत् पिधायते पिधीयते इति अर्थम्
अस्तु 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 तर्हि पृष्ठसङ्ख्या अस्ति अष्टादशाधिक एकशतम् इति इन्द्रियाणां प्राप्यकारित्वम् इति प्रकरणम् अस्तु राजेन्द्रमहोदय किञ्चित् पठति वा
शब्दशब्द स्थले अस्ति विस्तरेण निरूपणीयं वक्तुः मुखं यद् देशे वर्तते ताल्वाद्य घातैः तद्देश अवच्छेदेन छेदेन एव आकाशे शब्दोत्पत्तिः भवति स च मुख अवच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोति इन्द्रियं प्राप्नुयात् शब्दे गुणात्मक कथं प्राप्य अनुकूला
शब्दमस्ति भगिनि बहु शब्दमस्ति
अस्तु सर्वे म्यूट् कुर्वन्तु केवलं राजेन्द्रमहोदय अन्म्यूट् कृत्वा पठतु कृपया
द्रव्य श्रूयते वा भगिनि
आमां श्रूयते
आम् आम् अस्तु अस्तु क्षम्यताम् शब्दे गुणात्मके कथं श्रोतृदेशप्राप्य अनुकूला क्रिया भवेत् द्रव्यनिरूपण अवसरे आवेदितम् एव अस्माभिः गुणप्रियेयोः द्रव्यमात्रनिष्ठत्वम् अस्तु इदानीं पूर्वं तु वयं संयोगजः विभागजशब्दः कीदृशी अस्ति तत् उदाहरणानि दृष्टवन्तः इदानीं शब्दज शब्दस्थले तत्र निरूपणं भवति तस्मिन् परिच्छेदे अत्र अस्ति वक्तुः मुखं यद् देशे तालवजुहायाः अभिघातः भवति तद् देश अवच्छेदेन आकाशे शब्दोत्पत्तिः भवति यत्र कुत्रापि विश्वस्थले जुहायाः अभिघातः भवति मुखे यत्र कुत्रापि तत्र विशिष्टशब्दाः वर्णाः उत्पद्यन्ते तत्र तद्देश अवच्छेदकम् अस्ति यत्र तालवेषः जिह्वा अभिघात करोति तु स च मुख अवच्छेदेन यथा तत्र तत्र मुखे विशिष्टस्थले अवच्छेदने आकाशे यत् उत्पन्नः शब्दः उत्पन्नः भवति तत् सः शब्दः कथं श्रोतुः श्रोतृ इन्द्रियं प्राप्नुयात्, कथं शब्दः श्रोतुः श्रोतृ इन्द्रियं प्रति प्राप्नोति। यदि वयं जानीमः शब्दः तु गुणः अस्ति, तत्र कोऽपि क्रिया नास्ति, तदा कथं शब्दः श्रोतृदेश प्राप्य अनुकूला क्रिया भवेत्। द्रव्यनिरूपण अवसरे आवेदितम् एव अस्माभिः गुणक्रिययोः द्रव्यमात्रनिष्ठत्वं, गुणक्रिययोः तु द्रव्यमात्रनिष्ठत्वम् अस्ति, परन्तु अत्र तु शब्दः तु यत् यत् कस्यपि मुखे मुखात् उत्पन्नः भवति तथा श्रोतुः श्रोतृन्द्रियं प्रति कथं प्राप्नोति यदि तत्र शब्दः गुणम् अस्ति, तत्कारणात् तत् क्रिया न भवति तथा तदा कथं श्रोतृ इन्द्रियं प्रति शब्दः आगच्छति। द्रव्यनिरूपण अवसरे तत् पूर्वम् अस्माभिः दृष्टं गुणक्रिययोः तु द्रव्यमात्रनिष्ठत्वम् अस्ति, परन्तु अत्र तु
इत्युक्ते किं गुणक्रिययोः द्रव्यमात्रनिष्ठत्वम् इत्युक्ते
क्रिया यथा द्रव्ये यत् किमपि क्रिया भवति तत्र तु तत्र गुणः उत्पद्यते
इति वा, इति अर्थः वा? गुणक्रिययोः द्रव्यमात्रनिष्ठत्वं गुणस्य निष्ठत्वं कुत्र?
द्रव्ये
क्रियायाः निष्ठत्वं
द्रव्ये अस्ति।
आम् तदेव अस्ति, निष्ठत्वम् इत्युक्ते गुणः द्रव्ये एव वर्तते, पुनः क्रिया अपि द्रव्ये एव भवति, परन्तु कीदृशे द्रव्ये भवति गुणः क्रिया? अत्र क्रियायाः विशेष अंशः अस्ति खलु,
मूर्तद्रव्येषु
मूर्तद्रव्येषु एव क्रिया भवति।
कानि
कानि मूर्तद्रव्याणि?
पृथ्वी, जल, तेज, वायु, मनः।
मनः इति पञ्चमूर्तद्रव्याणि सन्ति, येषु क्रिया भवति। अतः अत्र शब्दः कुत्र भवति?
शब्दः तु आकाशे उत्पन्नः भवति, तत् आकाशस्य गुणः अस्ति, आकाशतः विभू द्रव्यमस्ति, तत् कारणात् कोऽपि क्रिया न भवति तत्र आकाशदेशे।
समीचीनम्, अस्तु अस्तु, अग्रे सुनील महोदय।
तर्हि श्रोत्रेन्द्रियं वक्तुमुखदेशं यातु इति चेत् नैतदपि सम्भवति, श्रोत्रस्यापि हि आकाशरूपत्वं विभुत्वं क्रियारहितत्वं च तन्निरूपणे निरूपितं, चक्षुरिन्द्रियस्य च मूर्तस्य सम्भवति क्रिया यत् घटं स्वस्थान स्थितमपि प्राप्य युक्त्वा तत् प्रत्यक्षं जनयति। अतः अत्र श्रोत्रेन्द्रियं वक्तुमुखदेशम् इति अस्ति, इत्युक्ते यः वदति तत्र एव शब्दः अस्ति, परन्तु तत्र अन्यस्य श्रोत्रेन्द्रियं प्रति कथं गच्छति इति प्रश्नः। आम् तत्र शब्दे क्रिया अपि नास्ति, श्रोत्रस्यापि अत्र आकाशरूपत्वमस्ति, आकाशः विभुद्रव्यमस्ति, तत्र क्रिया अपि शब्दे क्रिया अपि नास्ति। परन्तु अत्र चक्षुरिन्द्रियस्य उदाहरणं स्वीकुर्मः चेत् तत्र तेजस्वस्वरूपम् अस्ति, तेजः इति मूर्तद्रव्यम्, अतः यत्र घटः अस्ति चेत् तत्र तेजस्वरूपम् अस्ति, तत् घटं प्रति गच्छति इति कारणेन तत्र प्रत्यक्षं जनयति. परन्तु शब्दस्य विषये तादृशी क्रिया कथं सम्भवति इति प्रश्नः.
समीचीनं. श्रोत्रेन्द्रियम् आकाशीयम् इति कृत्वा श्रोत्रेन्द्रियं स्वयं चक्षुरिन्द्रियवत् कुत्रापि न गच्छति, तस्मिन् क्रिया न भवति, न सम्भवति एव. अस्तु, तदेव अस्माकं समस्या इत्युक्ते कथं श्रोत्रेन्द्रियं कार्यं करोति इत्येव अस्माकं विषयः. अस्तु, अग्रे पुष्पा भगिनी पठति वा?
अस्तु भगिनि. इन्द्रियाणां स्वभाव एषः यत् अत्र यातु तत्र लिखति न वक्तृमुखदेशं,
यातु इत्युक्ते गच्छतु इति, याति इत्युक्ते गच्छति.
इन्द्रियाणां स्वभाव एषः प्राप्यकारित्वं यत् प्राप्यकारित्वं को अर्थः अत्र कथं का अर्थः न
कः अर्थः इति
अत्र सिग्नम् नास्ति नास्ति न सचिनं नास्ति न को अर्थः
को अर्थः एव आम्
चिह्नं नास्ति न अत्र
किं भगिनि
चिह्नं अस्ति न यस् चिह्नं कोर्तः अस्तु अस्तु न मैण्ड् यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति प्रत्यक्षम् इन्द्रियेण भवति तेन तस्य सम्बन्धः संयोगः समवायः वा भवति एव. कुतः एतत् यदि स्व असम्बद्धबद्धम् अपि अर्थं चक्षुरादीनि ज्ञापयेयुः तदा भित्यादि व्यवहितानाम् अपि ज्ञानं जनयेयुः न च तथा दृष्टम्. इन्द्रियाणां स्वभावः एषः यत् प्राप्य कारित्वम् इन्द्रियाणां अत्र स्वभावः इति अस्ति वा
तेषां स्वभावः यत् प्राप्यकारित्वम् अग्रे पठेम इत्युक्ते किम् इति.
यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति तेन तस्य सम्बन्धः संयोगः समवायः वा भवति एव. प्रत्यक्षम् इन्द्रियेण ज्ञानं भवति न ज्ञानं भवति तस्य सम्बन्धः संयोगः वा समवायः वा भवति. एतत् कथं कुतः एतत् इति प्रश्नमायाति. यदि स्व असम्बद्ध बन्ध असम्बद्धम् अपि अर्थं चक्षुरादीनि इत्यर्थे चक्षुषे
चक्षुषा
चक्षुषा ज्ञापयेयुः तदा भित्यादि अत्र कथम् अर्थं नावगतं भगिनि भित्यादि
भित्ति इति भवती जानाति खलु यत् पृथक् करोति एकस्मिन् प्रकोष्ठे रामः अस्ति चेत् भित्तिः एव पृथक् करोति बहिः यः अस्ति तस्मात् खलु
न न अर्थं न जानामि
वाल् इति भगिनि
भित्त्यादि व्यवहितानाम् अपि ज्ञानं जनयेयुः अस्तु अस्तु असम्बद्धम् अपि स्व असम्बद्धम् अपि चक्षुरादीनि ज्ञापयेयुः तदा भित्त्यादि व्यवहितानाम् अपि ज्ञानं जनयेयुः कथम् अत्र भित्त्यादि अस्ति
एकनिमिषं भगिनि अर्थं ज्ञातुं प्रयत्नं कुर्मः चक्षुरादिनि चक्षुः कथं कार्यं करोति
पश्यति
आम् तर्हि चक्षुषा किमपि गृह्यते खलु किमपि द्रव्यं घटं गृह्यते चक्षुषा अत्र किमस्ति यदि स्व असम्बद्धम् अपि असम्बद्धम् अपि अर्थम् अर्थम् इत्युक्ते अत्र पदार्थः यत्किमपि द्रव्यं वा पदार्थं चक्षुषा पदार्थः गृह्यते साधारणतया गृह्यते चक्षुषा परन्तु पूर्वस्मिन् वाक्ये एव भवती पठितवती खलु कश्चन सम्बन्धः भवेत् इति समवायेन वा संयोगेन सम्बन्धः भवेत् इति परन्तु यदि सम्बन्ध एव नास्ति तर्हि किं भवति चक्षुषा गृह्यते वा इति पश्यामश्चेत् भित्त्यादि व्यवहितानाम् इत्युक्ते व्यवहितम् इत्युक्ते यद् भित्त्याः अनन्तरभागे अस्ति तस्य दर्शनमेव न भवति खलु
अत्र श्रोतुं शक्यते चक्षुषा न द्रष्टुं शक्यते
अत्र तु चक्षुः विषये एव यदि भित्त्याः अनन्तरभागे अनन्तरपक्षे कोऽपि अस्ति चेत् कोऽपि मनुष्यः अस्ति चेत् तस्य दर्शनं न भवति किमर्थं सम्बन्धः एव नास्ति चक्षुरिन्द्रियस्य सम्बन्धः मनुष्येन सह नास्ति इति कृत्वा तस्य दर्शनं न भवति वा तस्य प्रत्यक्षं न भवति इत्येव
विषयः पठामि वा अतः सम्बद्धः आवश्यकः इदानीं उक्तं न चक्षुरिन्द्रियः तेजोरूपं मूर्तम् इति बहिः निर्गत्य घटे नियुक्तं सत् घटप्रत्यक्षजनकम् तेजस्य रूपेण मूर्तम् इति चक्षुरिन्द्रियः ग्राह्यते
चक्षुरिन्द्रियं कीदृशं द्रव्यम् अस्ति
मूर्तद्रव्यम्
अस्तु, मूर्तद्रव्येषु कीदृशं द्रव्यमस्ति?
मूर्तद्रव्येषु
कीदृशं द्रव्यमस्ति चक्षुरिन्द्रियम्?
अत्र
मूर्तद्रव्यम् इति उक्तं, तर्हि तेषु किम् अस्ति?
तेषु पृथ्वी
तेजोरूपम् इति अस्ति तत्र खलु, अतः तैजसमेव
तेजोरूपम्
वा तैजसम् इति
न श्रूयते.
तेजोरूपम् अस्ति खलु चक्षुरिन्द्रियं वा तैजसम् अपि उच्यते. तैजसम् इति कृत्वा चक्षुरिन्द्रियं मूर्तद्रव्यम्. अतः किं भवति, कथं कार्यं करोति?
प्रत्यक्षज्ञानं, प्रत्यक्षजनकम्.
मूर्तद्रव्यम् इति कृत्वा तस्मिन् क्रिया भवति वा?
मूर्तद्रव्यम् इति क्रिया इन्द्रियेण अस्ति.
एकनिमिषं भगिनि, पूर्वं राजेन्द्रमहोदयेन पठितं खलु गुणक्रिययोः द्रव्यमात्रनिष्ठत्वम् इति. इत्युक्ते मूर्तद्रव्यम् अस्ति चेत् तस्मिन् क्रिया भवति. क्रियायाः आश्रयः अस्ति मूर्तद्रव्यम्.
अस्तु अस्तु, गुणक्रिययोः द्रव्यमात्र निष्ठित्वम्.
अत्र चक्षुरिन्द्रियम् इति मूर्तद्रव्यम् अस्ति, यतोहि तैजसद्रव्यं वा तेजोरूपम् अस्ति, अतः अस्मिन् क्रिया भवति यया चक्षुरिन्द्रियं बहिः गत्वा पदार्थं प्रति गत्वा तेन सम्बद्धः भवति इति.
घटे संयुक्ता संयोगः सत् घटप्रत्यक्ष
तस्य संयोगः पदार्थेन सह भवति.
घटे संयोगः इन्द्रियं घटे संयोगः भवति.
घटेन सह तस्य संयोगः भवति येन प्रत्यक्षं घटप्रत्यक्षं जायते. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे शुकवन महोदय.
आं भगिनि, तर्हि त्वगादीनां का कथा? न तानि तेजोरूपाणि, कथं हि जिह्वारूपं स्वाधिष्ठानं परित्यज्य जलीयं रसनेन्द्रियं बहिर्गच्छेत्? कथं वा नासिकां स्वाधिष्ठानं परित्यज्य पार्थिवं घ्राणेन्द्रियं गच्छेत्? इत्थमेव वायवीयं त्वगिन्द्रियं स्वाधिष्ठानं त्वचं परित्यज्य कथं निर्गच्छेत्? श्रोत्रस्य तु उक्तमेव असामर्थ्यम्.
कथं भगिनि?
किं
बहु शब्दः, बहु नाय्स् समवेयर्, ऐ डोंट नो व्हाट ऐ मीन, इट्स एज़ दो समबडी इज स्क्रैचिंग, दैट्स हाउ साउंड्स कम्स.
अस्तु अस्तु, पश्यामः पश्यामः. आं महोदय, क्षम्यताम्.
इदानीं पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः चक्षुरिन्द्रियं तैजसम् अपि च मूर्तम् इति कृत्वा तस्मिन् क्रिया जायते, तेन विषयेन सह तस्य संयोगः भवति, तद्वारा ज्ञानं जनयति इति. इदानीं अन्य इन्द्रियाणां विषये, अन्यानाम् इन्द्रियाणां विषये का गतिः? अन्य इन्द्रियाः तु अन्यः इत्युक्ते चक्षुः विहाय अन्य अन्याः इन्द्रियाः तैजसम् अन्यानि इन्द्रियाणि तैजसं नास्ति. रसनेन्द्रियं तु जलीयम् अस्ति. तत् जिह्वायां तस्य अधिष्ठाने एव वर्तते. त्वगिन्द्रियं वायवीयम् अस्ति. तत् त्वचित्तस्य त्वचि इति वा सप्तमी विभक्ति
प्रायः त्वचि
इति त्वचि एव भवति. घ्राणेन्द्रियं पार्थिवं तत्तु नासिकायाम् एव वर्तते इति कृत्वा यद्यपि ते मूर्तरूपं किन्तु तत्र तेषु प्रायः सामर्थ्यं नास्ति बहिः गन्तुं सामर्थ्यं नास्ति इति कृत्वा कथं तैः विषयैः सह तेषु संयोगः भवति इति प्रश्नः अस्ति. अपि च श्रोत्रेन्द्रियम् आकाशीयम् आकाशीयम् इति चेत् विभुः क्रियारहितत्वम् इति तस्य स्वभावः अस्ति इति कृत्वा तदपि इत्युक्ते श्रोत्रेन्द्रियमपि यत्र कुत्रापि न गन्तुं शक्यते इति कृत्वा प्रश्नः उदेति तेषु विषये कथं तयोः तेषु संयोगः विषयेषु भवति इति
अथवा तेषां प्राप्यकारित्वं कथं भवति इति प्रश्नः अत्र महोदय कथं हि जिह्वारूपम् इति आरभ्य किञ्चित् अन्वयं करोति वा तत्र क्रमः परिवर्त्य
कथं हि जिह्वारूपं स्व अधिष्ठानं परित्यज्य जलीयं रसनेन्द्रियं बहिर्गच्छेत् इति अस्ति. तत्र जिह्वारूपं जलीनियं रसनेन्द्रियं तत्र रसनेन्द्रियम् इति विशेष्यं तत् कीदृशं
किं बहिर्गच्छेत्
रसनेन्द्रियं कथं बहिर् कथं बहिर्गच्छेत् इति
रसनेन्द्रियं बहिर्गच्छ कथं बहिर्गच्छेत् रसनेन्द्रियस्य स्वभावः जलीयम् इति तर्हि जलीयं
जलीयम् आम् अपि च तत् कुत्र वर्तते रसनेन्द्रियं कुत्र वर्तते इत्युक्ते जिह्वायां तत् वर्तते
अतः
जिह्वा एव तस्य अधिष्ठानम्
तर्हि कथं हि
तत्र
अत्र किञ्चित् क्रमं परिवर्त्य वदेत् चेत् किं भवति कथं हि
रसनेन्द्रियं कथं हि जलीयं रसनेन्द्रियं स्व अधिष्ठानं जिह्वारूपं परित्यज्य
समीचीनं महोदय तथैव
कथं वा पार्थिवं ग्राणेन्द्रियं स्व अधिष्ठानं नासिकां परित्यज्य गच्छेत्
समीचीनम्
इत्थमेव त्वचं स्व अधिष्ठानं त्वगिन्द्रियं परित्यज्य कथं निर्गच्छेत् इति
त्वगिन्द्रियं स्वाधिष्ठानं त्वचं परित्यज्य खलु
क्षम्यताम् आम् इत्थमेव कथं वायवीयं त्वगिन्द्रियं स्वाधिष्ठानं त्वचं परित्यज्य निर्गच्छेत्
अस्तु समीचीनं महोदय
श्रोत्रस्य तु उक्तमेव असामर्थ्यम् इत्युक्ते तत्र असामर्थ्यम् इत्युक्ते क्रियारहितत्वम् अपि च विभुत्वं तेन कारणेन तस्य सामर्थ्यं नास्ति यत्र कुत्रापि गन्तुम्.
अस्तु, समीचीनं. अस्तु भगिनी,
एकः प्रश्नः, जलीयं वायवीयम् एते कीदृश शब्दाः सन्ति व्याकरणे?
प्रायः जलीयं अहं प्रायः
योजयित्वा आम् तद्धिता एव, किन्तु इनि इनि इति प्रत्ययः अस्ति.
किं प्रत्ययः?
यथा
इनि इनि
इनि प्रत्ययः चेत् उदाहरणं किं किम् अस्ति तत्र?
जलम् इति स्वीकुर्मश्चेत् तत्र जलीयं जल् इनि इनि इति प्रत्ययः अस्ति प्रायः. कथं
प्रत्ययः अहं न जानामि भगिनि, परन्तु अन्वेषणं कृत्वा पृष्ट्वा वा अहं वदामि अग्रिमसप्ताहे अवश्यं. क्षम्यताम्. अस्तु, अग्रे वर्धिनी भगिनि.
आं भगिनि, सत्यमेतत् न इमानि इन्द्रियाणि स्वाश्रयं त्यजन्ति, तथापि स्वाधिष्ठानसम्बद्धं गृह्णन्ति. रसनेन्द्रियं जुहया सम्बद्धस्य गुणस्य एव माधुर्यं प्रकाशयति न विप्रकृष्टस्य. घ्राणेन्द्रियं नासिकासम्बद्धस्य पुष्पस्य एव गन्धं प्रकाशयति न विप्रकृष्टस्य. इन्द्रियाणि स्वाश्रयं त्यजन्ति, तथापि स्वाधिष्ठानसम्बद्धं गृह्णन्ति.
न त्यजन्ति खलु भगिनि तत्र? न इमानि इन्द्रियाणि,
न इमानि इन्द्रियाणि स्वाश्रयं त्यजन्ति, न त्यजन्ति, तथापि स्वाधिष्ठानसम्बद्धं गृह्णन्ति. स्वाधिष्ठान इन्द्रियाधिष्ठानसम्बद्धं गृह्णन्ति. रसनेन्द्रियं जिह्वया सम्बद्धस्य गुणस्य एव माधुर्यं प्रकाशयति न विप्रकृष्टस्य. तदर्थं रसनेन्द्रियं जिह्वया सम्बद्धस्य गुडस्य एव माधुर्यं. रसनेन्द्रियं जिह्वया सम्बद्धमस्ति, तत्कारणात् गुडस्य माधुर्यं प्रकाशयति न दूरव्यवस्था. घ्राणेन्द्रियं नासिकासम्बद्धस्य पुष्पस्य एव गन्धं प्रकाशयति न विप्रकृष्टस्य. घ्राणेन्द्रियं नासिकासम्बद्धं तत्कारणात् पुष्पस्य गन्धं प्रकाशयति न दूरे विद्यमानस्य.
विप्रकृष्टस्य इत्युक्ते किं
किं भगिनि?
विप्रकृष्टस्य
दूरे विद्यमानस्य दूरव्यवस्थया.
आम् आम्, सन्निकृष्टस्य विपरीतपदम्. अस्तु, इदानीं वदतु, तथापि स्वाधिष्ठानसम्बद्धं गृह्णन्ति इत्युक्ते किम्?
स्वाधिष्ठानसम्बद्धम् इन्द्रियस्य अधिष्ठानसम्बद्धम्
स्वम् इत्युक्ते इन्द्रियम्,
इन्द्रियं
स्व अधिष्ठानसम्बन्धं, तत्र विग्रहवाक्यं किं?
सम्बद्धं स्वाधिष्ठानसम्बद्धं विग्रहवाक्यं इन्द्रियाणां प्राप्यकारित्वं
अग्रे किं दृष्टं सा जिह्वया सम्बन्धस्य गुडस्य एव माधुर्यं पुनः नासिका सम्बन्धस्य पुष्पस्यैव गन्धम् इति तत्र तु अधिष्ठानं किम्
रसनेन्द्रियं जिह्वया सम्बद्ध रसनेन्द्रियं जिह्वा रसनेन्द्रियमस्ति सम्बन्धः अस्ति
रसनेन्द्रियस्य अधिष्ठानं किम् भवती उक्तवती एव
जिह्वा
एव तर्हि स्व अधिष्ठानसम्बन्धम् इत्युक्ते अत्र जिह्वया कस्य सम्बन्धः भवति कस्य गुडस्य इति खलु अत्र रसनेन्द्रियविषये जिह्वया गुडस्य सम्बन्धः पुनः नासिकया
नासिकया पुष्पस्य एव गन्धं नासिका पुष्प संयोगसम्बन्धः पुष्पस्य गन्धं समवायसम्बन्धः अस्ति वा प्रकाशयति न विप्रकृष्टस्य
परन्तु सम्बन्धः कस्य सम्बन्धः नासिकाविषये
घ्राणेन्द्रियं नासिकासम्बन्धस्य पुष्पस्य एव
पुष्पस्य सम्बन्धः साक्षात् भवति वा अन्य कोऽपि वदति वा यथा भवत्या उक्तं रसनेन्द्रियस्य विषये जिह्वायाः सम्बन्धः गुडेन सह खलु घ्राणेन्द्रियविषये
गन्धमस्ति वा गुणः
हा पुष्पस्य गुणः गन्धः एव परन्तु सम्बन्धः कयोः सम्बन्धः भवति शुकवन महोदय
पुष्पकणानां
साक्षात् पुष्पस्य सम्बन्धः न भवति खलु कणानां सम्बन्धः रसनेन्द्रियेण अस्तु समीचीनं भगिनि अतः अत्र किम् अस्ति विषयः सम्बन्धः भवेत् इति इन्द्रियस्य सम्बन्धः
घ्राणेन्द्रियं नासिकासम्बद्धस्य
घ्राणेन्द्रियं नासिकासम्बन्धस्य पुष्पस्य एव गन्धं प्रकाशयति अत्र केन सम्बन्धः इति न उक्तं परन्तु पुष्पस्य ज्ञानं जनयति इति परन्तु अत्र सारः अस्ति यत् कथञ्चित् इन्द्रियस्य सम्बन्धः गुणस्य आश्रयेण भवेत् इति अस्तु अग्रे पश्येम कथम् इति पश्येम
असम्बद्धे सत्यपि मालतीपुष्पे अनुभूयते तद्गन्धः इति चेत् तत्रापि वायुना आनेदाः पार्थिवाः सूक्ष्माः कणाः न चक्षुषा गृह्यन्ते घ्राणेन्द्रियेण सम्बद्धेषु तेषु तद्गन्धप्रत्यक्षं जायते
भगिनि वदतु तावत्पर्यन्तं
असम्बद्धे सत्यपि मालतीपुष्पे अनुभूयते तद्गन्धः असम्बद्धः अस्ति अपि मालति कोऽपि पुष्पे अनुभूयते तद्गन्धः इति चेत् तत्रापि वायुना आनीताः पार्थिवाः सूक्ष्मः कणाः न चक्षुषा गृह्यन्ते पुष्पस्य कणाः न चक्षुषा गृह्यन्ते घ्राणेन्द्रियेण सम्बद्धेषु तेषु तद्गन्ध गन्धप्रत्यक्षं जायते कणाः चक्षुषा न गृह्यते घ्राणेन्द्रियेण एव सम्बद्धेषु गन्धप्रत्यक्षं जायते
तर्हि कणानां सम्बन्धः केन भवति पुष्पकणानां सम्बन्धः केन भवति
पुष्पकणानां सम्बन्ध
नासिकायाम् अस्ति घ्राणेन्द्रियं तर्हि सम्बन्धः कुत्र भवति कयोः सम्बन्धः भवति सरला भगिनी सहायं करोति वा
नासिकायां तिष्ठ घ्राणेन्द्रियेण सह सूक्ष्म कणानां पार्थिवकणानां सम्बन्धः भवति
समीचीनम् इदानीं वर्धिनि भगिनी स्पष्टं वा भवती एव वदतु वर्धिनि भगिनि
असम्बद्धे सत्यपि दूरे अस्ति असम्बद्धे सत्यपि मालती पुष्पे अनुभूयते तद्गन्धः इति चेत् तत्रापि वायुना आनीताः पार्थिवाः सूक्ष्मः कणाः न चक्षुषा गृह्यन्ते घ्राणेन्द्रियेण सम्बद्धेषु तेषु तद्गन्धप्रत्यक्षं जायते घ्राणेन्द्रियेण सम्बद्धः अस्ति
यद्यपि पुष्पं दूरे अस्ति पुष्पात् किं पुष्पात् कणाः बहिर्गच्छन्ति खलु नासिकां प्रति गच्छन्ति तदा किं भवति
वायुना कणाः गच्छन्ति घ्राणेन्द्रियेण सम्बद्धः अस्ति तेषु कणेषु
आम्
तद्गन्धप्रत्यक्षं जायते
समीचीनम् अग्रे
एवं त्वगिन्द्रियस्य तदपि च त्वचा सम्बद्धस्य जलस्य एव शीतस्पर्शं गृह्णाति न तु विप्रकृष्टस्य त्वगेन्द्रियमपि तदा एव तदपि च त्वचा सम्बद्धस्य जलस्य एव
त्वचा किं गृह्यते
जलस्य एव शीतस्पर्शं गृह्णाति जलं शीतस्पर्शं गृह्णाति न तु दूरव्यवस्थया त्वक् जलसम्बन्धः अस्ति खलु
कयोः सम्बन्धः
जलेन सम्बन्धः
त्वज्जलयोः सम्बन्धः अस्ति
शीतस्पर्शं गृह्णाति
त्वगेन्द्रियजलयोः सम्बन्धः अस्ति इन्द्रियसम्बन्धग्राहकत्वमेव मूलविषयः अस्ति खलु
न तु विप्रकृष्टस्य
इत्युक्ते कथञ्चित् सम्पर्कः भवेत् पुष्पविषये तु साक्षात् सम्पर्कः नास्ति चेदपि कणानां सम्पर्कः भवति एव इन्द्रियेण सह इन्द्रियेण कणानां सम्पर्कः भवति. अस्तु, अग्रे सरला भगिनी.
आं भगिनि, एतादृशविवरणेन इदम् आगतं यत् सर्वत्र यस्य द्रव्यस्य प्रत्यक्षम् इन्द्रियेण जननीयं तद् द्रव्यं ग्राहकेन इन्द्रियेण सम्बन्धं चेत् एव द्रव्यप्रत्यक्षं जायते. गुणानाम् अपि रसादीनां रसना आदीनां प्रत्यक्षं जननीयं चेत् गुणे तस्मिन् क्रियायाः असम्भवे अपि तादृश्यः तदाश्रयः क्रियावान् आगत्य इन्द्रियेण सम्बन्धो भवति. ततः रसादीनां वक्ष्यमाणेन स्वसंयुक्तसमवायि सन्निकर्षेण प्रत्यक्षम् सन्निकर्षेण स्वसंयुक्तसमवायि सन्निकर्षेण प्रत्यक्षम् स्वं रसेन्द्रियं तत्संयुक्तगुण तत्समवायः मार्धये इदमेव सम्बन्धग्राहकत्वमेव इन्द्रियाणां प्राप्य कारित्वम् इति शास्त्रे प्रसिद्धम्. वाक्येषु पठामि. एतादृशविवरेण इदम् आगतं यत् सर्वत्र यस्य द्रव्यस्य प्रत्यक्षम् इन्द्रेण जननीयं यथा वयं पूर्वं दृष्टवन्तः चक्षुष द्रव्यस्य चक्षुषा तेजस् चक्षु तेजसा बहिर् बहिर् आगत्य द्रव्येन सह सम्पर्कं करोति संयोगः भवति तस्य चक्षुषा इति प्रत्यक्षं भवति. त्वग् इन्द्रिया त्वग् इन्द्रियेन तत्र द्रव्यस्य साक्षात् त्वचा यदि त्वग् इन्द्रियत्वचे त्वचि अस्ति तत्र द्रव्यस्य साक्षात् संयोगः भवति यथा जलं वा वायवीव द्रव्यं नासिकायां घ्राण इन्द्रिय तिष्ठति तत्र पार्थिवसूक्ष्मकरणा आगत्य तस्य संयोगः करोति तस्य तस्मिन् द्रव्ये गुणः अस्ति यथा गन्धं तस्य सम्पर्कं तस्य ज्ञानं भवति. एतत् प्रत्यक्षम् इन्द्रियेण यद् ज्ञानम् अस्ति तत् द्रव्यं ग्राहकेन इन्द्रियेण सम्बन्धं चेत् एव द्रव्यप्रत्यक्षं जायते. यदि तद् इन्द्रियेण सम्बन्धं भवति तत् अग्रे अस्ति कः सम्बन्धः अस्ति द्रव्यस्य प्रत्यक्षं जायते. द्रव्य किम् अस्ति तस्य ज्ञानम् आगच्छति. गुणानामपि रसादीनां रसनादीनां प्रत्यक्षं जननीयं चेत् गुणे तस्मिन् क्रियायाः गुणानां यथा रसम् आदीना वा रसना रस इन्द्रिय रसं तत् द्रव्यस्य गुणः अस्ति रस तस्य प्रत्यक्षं ज्ञानं कथं भवति गुणे तस्मिन् क्रियायाः या द्रव्यम् अस्ति तस्मिन् क्रिया अस्ति न तु गुणे अस्ति तस्य क्रियायाः गुणे क्रिया नास्ति असम्भवे अपि तत् आश्रयः गुणे क्रिया नास्ति किन्तु तत् गुणे गुणम् अस्ति यस्मिन् आश्रये गुणः अस्ति तत् क्रियायाः अस्ति क्रियावान् आगत्य इन्द्रियेण सम्बन्धो भवति तत् आश्रयः क्रियावान् अस्ति मीन्स् तत् द्रव्ये क्रिया भवति तद् यदि इन्द्रियेण सह तस्य संयोगः भवति सम्बन्धः भवति तद् तदनन्तरं गुणस्य इन्द्रेण प्रत्यक्षं ज्ञानं भवति.
समीचीनं, बहु समीचीनं. अस्तु, नामकरणं किम्?
तस्य रसादीनां वक्ष्यमाणेन स्वसंयुक्तसमवायी सन्निकर्षेण प्रत्यक्षम् एतदस्ति परम्परासम्बन्ध. स्व अस्ति इन्द्रियं, संयुक्तसंयोगसम्बन्ध भवति द्रवेण सह. द्रवे यः गुणसमवायसम्बन्धेन अस्ति तत् स्वसंयुक्तसमवायी सम्बन्धसङ्कर्षेण प्रत्यक्षम् इति सम्बन्ध अस्ति. स्वम् अतः पुनः दत्तमस्ति. स्वम् अस्ति रसेन्द्रियं, तत् संयुक्तगुणः. रसेन्द्रियं यदि गुण मीन्स् द्रव्यं सहित यदि संयोगसम्बन्धः भवति तदा तत् समवाय गुणे गुण अस्ति द्रव्यं तस्मिन् अस्ति माधुर्यगुणसमवायसम्बन्धेन तत् समवायसम्बन्धेन रसेन्द्रियं माधुर्यगुण प्रत्यक्षं भवति.
समीचीनं, बहु समीचीनं भगिनि.
इदमेव सम्बन्धग्राहकत्वमेव इन्द्रियाणां प्राप्य कार्यत्वमिति शास्त्रे प्रसिद्धा. यदा वयं उपरि इन्द्रियाणां प्राप्य कार्यत्वं लक्षणं दृष्टं तस्य अर्थम् इदमस्ति. सम्बन्धग्राहक इन्द्रियाणां द्रव्यस्य सम्बन्धस्वसंयुक्तसमवायसम्बन्ध इति प्राप्य कार्यत्वं शास्त्रे दत्तमस्ति.
इत्युक्ते इन्द्रियाणां प्राप्य कार्यत्वम् इत्युक्ते सम्बन्धग्राहकत्वम् इति, सम्बद्धग्राहकत्वम् इत्येव अर्थः.
इन्द्रिय द्रव्येन सह सम्बन्धकरोति तस्य गुणस्य समवायेन यत् प्रत्यक्षं ज्ञानं भवति इन्द्रियेण.
समीचीनम्. अस्तु, अस्मिन् परिच्छेदे गुणानाम् अपि रसादीनां रसनादिना इत्युक्ते किं भगिनि? रसादीनाम् इत्युक्ते किम् अस्ति?
रस आदीनां रस आदि यथा घ्राणम् अन्यगुणः. रसनादीनां रसना यथा रसना रसस्य जिह्वा रसना रसेन्द्रियस्य अधिष्ठानम् अस्ति तस्य.
अत्र रसनादीना इत्युक्ते विभक्तिः का?
रस षष्ठी विभक्ति बहुवचने रसनादीना.
एवं वा? रसनादिना प्रत्यक्षम् अतः
रसना यथा रसना इन्द्रिय अस्ति तथा अन्ये इन्द्रियाणाम् अपि
इन्द्रियेण प्रत्यक्षम् इति
खलु.
इन्द्रियेण प्रत्यक्षं जायते अतः तृतीया खलु.
अस्तु,
किम्
तृतीया विभक्ति?
तृतीया खलु. रसनादिना इत्युक्ते रसनेन्द्रियेण इति, रसना इत्युक्ते रसनेन्द्रियं तस्य उद्देशः. अस्तु, गुणानामपि रसनादीनाम् इत्युक्ते तत्र गुणानां प्रत्यक्षम् इन्द्रियेण जननीयं चेत् इति अस्ति.
क्रियया भवति तत्.
आम् आम्. पुनः क्रियावान् कः? क्रियावान्
क्रियावान् अस्ति द्रव्यं तत् गुणस्य
आश्रयः. क्रियावान् अस्ति
द्रव्यक्रियावान् भवति पुल्लिङ्गशब्दक्रियावान्.
यस्मिन् क्रिया भवति सः क्रियावान्
क्रियावान्.
ततः रसादीनां वक्ष्यमाणेन तत्र रसादीनाम् इत्यस्य अन्वयः कुत्र?
रसनादीनाम् अन्वय इन्द्रिय रसगुणानामपि रस ओ अन्वय कुत्र रसादीनां जननीयं गुणे तस्मिन् क्रियासमये रसनादीनां सम्बन्धः भवति
इन्द्रियेण कुत्र अस्ति सम्बन्धः भवति इति
सम्बन्धो भवति अग्रिमे वाक्ये
एवं वा एवं
गुणानां
किं भगिनी वदति भगिनी
रसादीनां गुणानां
गुणानां कुत्र अस्ति प्रथमं वा प्रथमं पदं वा गुणानां रसनादीनां रसनादिना प्रत्यक्षम् इति अस्ति तत्र गुणानां प्रत्यक्षम् इति दृष्टं खलु परन्तु अत्र किम् असम्भवे अपि तदाश्रयः क्रियावान् आगत्य इन्द्रियेण सम्बद्धो भवति ततः रसादीनाम् इति आरभ्य तस्य अन्वयः कुत्र अस्ति सुनील महोदय
अत्र पूर्वस्मिन् वाक्ये अपि अस्ति गुणानाम् अपि रसादीनां
न अत्र अत्र भागः ततः इति आरभ्य
ततः
गुणानाम् अन्वयत्तु अस्ति प्रत्यक्षं जनन गुणानां प्रत्यक्षम् इति तत्र अभवत् खलु अत्र ततः इति आरभ्य रसादीनाम् अन्वयः कुत्र
रसादीनां गुणे तस्मिन् क्रियायाः
एवं भवती उक्तवती खलु रसादीनाम् इत्युक्ते किम् इति गुणानाम् इति खलु अतः
रसादीनाम् इत्युक्ते अत्र गुणानाम् इति अत्र
षष्ठी खलु रसादीनां किं
रस घ्राणं गुणम् अन्य गुणः
अन्य कोऽपि वदति वा
भगिनि रसादीनां प्रत्यक्षं
प्रत्यक्षं खलु गुणानां प्रत्यक्षं रसः इति गुणं गुणः रसादीनां रसस्य प्रत्यक्षं रसग्राणम् इत्यादीनां प्रत्यक्षं खलु स्पष्टं वा न वा
रसनादीना तस्य अन्वयः कुत्र अस्ति
रसनादीना इति तृतीया गुणानां प्रत्यक्षं रसनादीना जायते
अस्तु अस्तु
स्पष्टं वा
आमामां भगिनि
पुनः पठति वा गुणानाम् अपि रसादीनां प्रत्यक्षं रसादिना जननीयं चेत् गुणे तस्मिन् क्रियायाः असम्भवे अपि तदाश्रयः क्रियावान् आगत्य इन्द्रियेण सम्बद्धो भवति ततः रसादीनां प्रत्यक्षं वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण भवति इति अध्याहारः खलु अस्तु अग्रे स्वं रसनेन्द्रियं तत् संयुक्तः गुडः तत् समवायः माधुर्य आम् इति सर्वम् उक्तम् अस्तु अत्र प्रत्यक्षज्ञानहेतुः इति महोदयेन उक्तम् अत्र प्रत्यक्षज्ञानहेतुः इन्द्रियार्थसन्निकर्षः इति शास्त्रीय किम् अस्ति पर्यायवाची शब्दः प्रायः षड्विधः इति तेन उक्तम् इत्युक्ते प्रत्यक्षज्ञानहेतुः यः इन्द्रियार्थसन्निकर्षः इत्युक्ते इन्द्रिय अर्थ इन्द्रियपदार्थयोः सन्निकर्षः वा सम्बन्धः यः भवति तादृशसम्बन्धः षड्विधः अस्ति. अत्र तु स्वसंयुक्तसमवायसम्बन्धः इति दृष्टं घ्राणेन्द्रियविषये वा रसनेन्द्रियविषये. परन्तु षड्विधः चेत् संयोगसम्बन्धः भवितुमर्हति वा संयुक्तसमवायसम्बन्धः वा संयुक्तसंयुक्तसम्बन्धः वा समवेतसमवायसम्बन्धः इत्यादयः षड्विधः सन्निकर्षः इति महोदयेन उक्तम्, येन प्रत्यक्षज्ञानं भवति. अस्तु, अत्र सन्देहः अस्ति वा
भगिनी? तत्र इदानीमपि मम सन्देहः अस्ति, तत् समवायः माधुर्ये इति अस्ति
किल, तत्
समवायः माधुर्यम् इति भवति
चेत् महोदय, स्वम् इति इन्द्रियं तत्तु भवान् जानाति एव, स्वं रसनेन्द्रियं, तत् संयुक्तः गुडः तत्तु भवान् जानाति खलु.
हा, तत्र तत् इत्युक्ते रसनेन्द्रियेण संयुक्तः गुडः,
गुडः तत् समवायः. अत्र समवायः इत्युक्ते सम्बन्धः इति अर्थः, समवायिन् नकारान्तपदम् इत्युक्ते माधुर्यम् इति वक्तुं शक्यते खलु. कपालसमवायः किम् अस्ति, कुत्र अस्ति कपालसमवायः?
समवायः इत्युक्ते किं प्रथमं?
सम्बन्धः एव, समवायसम्बन्धः इति अर्थः. परन्तु रूपसमवायी इत्युक्ते घटः एव, रूपसमवायी घटः, रूपसमवायिनी इति स्त्रीलिङ्गपदं, परन्तु अत्र तु पुल्लिङ्गपदमेव खलु घटः, अत्र रूपसमवायी घटः, घटसमवेतः तत्तु
घटसमवेतः रूपम्
रूपम् इति. अत्र समवायः इत्युक्ते समवायसम्बन्धः माधुर्ये, अतः एव सप्तमी. स्पष्टं वा?
ओ, अत्र तत् समवायः इत्युक्ते तत् समवायसम्बन्धः माधुर्ये अस्ति इति.
हा, यदि स्वं स्वरसनेन्द्रियं तत् संयोगः गुडे इति वक्तुं शक्यते खलु.
तत्र तत् संयोगसम्बन्धः गुडे इति, यदा सम्बन्धः इति पदं प्रयोजयामश्चेत्
खलु आवश्यकं वा सम्बन्धः, संयोगः तयोः संयोगः इति वयं वदामः खलु, हस्तपुस्तकसंयोगः इति वदामः.
अहं किञ्चित् भिन्नरूप भिन्नरीत्या विग्रहवाक्यं करोमि. तत् संयुक्तः गुडः इत्युक्ते तेन संयुक्तः गुडः इति, तेन इत्युक्ते रसनेन्द्रियेण संयुक्तः गुडः इति वदामश्चेत् तेन संयुक्तः गुडे इति न वक्तुं शक्यते, तेन संयुक्तः गुडः.
परन्तु तत् इति वदामश्चेत् यत्किमपि भवितुमर्हति खलु, प्रसङ्गानुगुणम् एव अस्माकम् अर्थः निष्पद्यते.
आं भगिनि, उन्नतः बालकः, उन्नतः वृक्षः, तादृशं संयुक्तः गुडः, तेन संयुक्तः गुडः
भवति.
हा, तादृशमेव अहं स्वीकृतवान्, तादृशमेव तत् समवायः माधुर्यम् अत्र तत् इत्युक्ते गुडः
गुडस्य समवायः गुडस्य समवायः सम्बन्धः माधुर्ये अत्र तु षष्टि तत् संयुक्तः गुडः तत्र तृतीया खलु अतः प्रासङ्गिकः अस्ति तत् इत्यस्य अर्थः
अस्तु भगिनि अस्तु भगिनि
किं प्रश्नः अस्ति चेत् पृच्छतु कृपया
इदानीमेव मम मयि परन्तु
भवान् अङ्गीकरोति यत् तत् संयुक्तः गुडः इत्युक्ते तेन संयुक्तः गुडः तत्तु तृतीया खलु पुनः तत् समवायः माधुर्ये इत्युक्ते षष्टि एव
इत्युक्ते तस्य समवायः इति भवति वा
तस्य समवायसम्बन्धः माधुर्ये गुडस्य समवायसम्बन्धः कुत्र भवति गुडः इति गुणिनः माधुर्यम् इति गुणि गुणः खलु गुणगुणिनयोः समवायसम्बन्धः तादृशसमवायसम्बन्धः कुत्र भवति गुडे अपि तु
माधुर्यगुडयोः मध्ये भवति
अत्र तत् संयुक्तः गुडः तत् समवायः इति अस्ति इति कृत्वा गुडस्य समवायः माधुर्ये अत्र समवायः इत्युक्ते सम्बन्धः इति यदि तत् समवायी माधुर्यम् इति चेत् यद् भवान् वदति तत्तु सत्यम्
भगिनि माधुर्य भवति समवेतं गुण भवति तत् समवायी
तत् समवायी समीचीनमेव भगिनि यत् भवत्या उक्तं तत् समवेतं समवेतम् इत्युक्ते उपरि गन्तव्यं भवति खलु
उपरि गन्तव्यं
माधुर्यसमवेतम् अस्ति गुडं खलु
द्रव्यं भवति
न
मधुरं गुण भवति गुणे गुडे अस्ति माधुर्यम्
गुडे अस्ति माधुर्यम् अत्र समवेतं किं समवेतम् अस्ति राजेन्द्र महोदय समवेतम् इति पदम् अस्ति चेत् किं कुत्र समवेतं वा किं कस्य समवेतम् शुकमनं महोदय किं चिन्तनं
माधुर्यं समवेतं
गुणं समवायि भवति माधुर्यस्य गुड
गुडसमवेतं माधुर्यम्
आम्
गुडसमवेतं माधुर्यं
गुडसमवायः माधुर्ये अस्ति
तर्हि अत्र गुडसमवेतं माधुर्यम् इति भवति समीचीनमेव अत्र तत् समवायः माधुर्ये इति कृत्वा सम्बन्धः एव सूच्यते किं समाधानं नास्ति वा अत्र
न समयः जातः अस्ति किन्तु इतोपि मया किञ्चित् चिन्तनीयम्
अस्तु अग्रे
चिन्तयामि
सरला भगिनी, राजेन्द्रमहोदय भवतः क्रमः प्रायः.
आम् आं भगिनि. शब्दप्रत्यक्षस्थले तर्हि का गतिः? इदं च सर्वं श्रोत्रेण शब्दप्रत्यक्षजन्ये कथं स्यात्? शब्दः स्वयं गुणरूपः, न क्रियावान् इति न पुष्पकणानां ग्राणदेशे आगमनवत् तस्य श्रोत्रं प्रति आगमनं सम्भवति, न अपि चक्षुर् इन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातम्. तस्य विभुत्वात् क्रियारहित्वात् तर्हि रसादौ यथा गुणः आश्रय एव रसनां प्रति याति, तथा इह अपि शब्द आश्रयः श्रोतं प्रति आयातु इति चेतना उक्तं शब्दस्य आकाशगुणत्वम्. अत्र प्रश्नः अस्ति, शब्दप्रत्यक्ष कथं भवति, तत्र कः तस्य कः गतिः अस्ति? अत्र श्रवण श्रोत्रेण शब्दप्रत्यक्षजन्ये कथं स्यात्? यदा कस्मिन्नपि मुखात् शब्दः जनयति तदा ततः तत् श्रोतुः श्रोतृन्द्रियं कथं प्रत्यक्षं प्रत्यक्षं भवति शब्दस्य श्रोत्र?
इदम् इदं च सर्वम् इत्युक्ते किम्? इदम् इत्युक्ते किम्? इदं च सर्वं
यत् उपरि उक्तम् आसीत् यथा चक्षुरिन्द्रिय तत्र बहिर्निर्गत्य सम्बन्धः प्रत्यक्षसम्बन्धेन प्रत्यक्षः भवति, अथवा वायुनः पुष्पकणानाम् आनीय तत्र दन्तस्य सम्बन्धः भवति.
इत्युक्ते संक्षिप्तरूपेण प्राप्यकारित्वम् इति खलु?
प्राप्यकारित्वं सर्वं श्रोत्रेन्द्रियेण तत् शब्दप्रत्यक्षं कथं स्यात्? शब्दः स्वयं गुणरूपः, गुणरूपः अस्ति तथा क्रियामान् न अस्ति, तादृशी पुष्पकणानां ग्राणदेशे आगमनवत् तस्य श्रोत्रं प्रति आगमनं सम्भवति, यथा पुष्पकणाः वायुनः ग्राणदेशे आगत्य तत्र ग्राणेन्द्रियेण प्रत्यक्षं भवति, तथा तु अत्र न भवितुम् अर्हति. यथा शब्दः स्वयं गुणरूपः अस्ति, तत्र कथं शब्दः श्रोत्रं प्रति श्रोत्रेन्द्रियं प्रति आगमनं भवति, न अपि चक्षुरिन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातुं, यथा चक्षुरिन्द्रियं तेजरूपं बहिर्निर्गत्य प्रत्यक्षं जायते, तथा अपि अत्र सम्भवं न अस्ति, यथा शब्दः चक्षुरिन्द्रियवत् बहिर् न गन्तुं न सति, यथा तत्र क्रियारहितमस्ति, विभूत्वात् क्रियारहितवात् अस्ति, तत्कारणात् तत् बहिर् न गन्तुं शक्नोति. तर्हि रसादो यथा गुडः आश्रयः एव रसनां प्रति याति, तथा इह अपि शब्द आश्रये श्रोत्रं प्रति आयातु इति चेतना उक्तं शब्दस्य आकाशगुणत्वं. यथा रस आदि गुडः यथा तत्र गुडः तत्र गुडे आश्रित यस्य माधुर्यम् आसीत् सः गुडं रसेन्द्रियन् प्रति आगत्य तत्र माधुर्यं प्रत्यक्षं भवति, तत् अत्र शब्द आश्रयः श्रोतं प्रति न आगन्तुं शक्नोति, यथा शब्दस्य आकाशगुणत्वम् अस्ति, क्रियारहितवान् तत्र कुत्रापि क्रिया न भवितुम् अर्हति शब्दस्य.
समीचीनम्. अत्र तर्हि रसादौ यथा गुडः गुडः आश्रयः एव रसनां प्रति इत्युक्ते किम्? अत्र
रसन् इन्द्रियान् प्रति
इन्द्रियं
गुणः तु आश्रयः एव अस्ति, परन्तु यदा रसेन्द्रियन् इन्द्रियं प्रति गुणकणः गुणः आगच्छति तत्र तत्र यत् माधुर्यम् अस्ति समय तत् तस्य रस इन्द्रियाणाम् इन्द्रियाणि सह प्रत्यक्षं भवति.
समीचीनम्. अतः अत्र किमस्ति, सम्बन्धग्राहकत्वं द्विविधेन एव भवति, तत्र सम्भावनाद्वयमेव.
एकं तु अस्ति चक्षुरिन्द्रियं बहिर्निर्गत्य
बहिर्गमनं, इन्द्रियस्य बहिर्गमनं, नो चेत्
अन्यथा
इन्द्रियं प्रति खलु
क्रियावान् अस्ति, तत् द्रव्यम् आगत्य तत् तस्मिन् स्थित गुणं गुणेन सह प्रत्यक्षं भवति,
गुणेन सह गुणस्य प्रत्यक्षं भवति,
गुणस्य प्रत्यक्षं भवति इन्द्रियेण सह,
न गुणस्य प्रत्यक्षं भवति इन्द्रियपदार्थयोः वा इन्द्रियद्रव्ययोः संयोगात् गुणस्य प्रत्यक्षं भवति. अस्तु, अग्रे सुनील महोदय.
शब्दस्थले हि अयं विशेषः यत् ग्राहकस्य श्रोतेन्द्रियस्य गुणः इव शब्दः न इतरस्य. रसनादौ तु ग्राहकं रसना न तद्गुणः माधुर्यं, किन्तु गुडस्य गुणः. इह ग्राहकः आकाशः श्रोत्रावच्छिन्नः आश्रयोऽपि च आकाशः. तस्य निष्क्रियत्वात् न तदागमनं श्रोत्रदेशे सम्भवति. अतः कश्चन उपायः वैशेषिकैः कल्पितः, स एव शब्दजशब्दः इति उच्यते. एतावता निरूपितं विषयं चित्रद्वारा पश्यामः. अत्र शब्दस्थले हि अयं विशेषः यत् ग्राहकस्य श्रोत्रेन्द्रियस्य गुणः एव शब्दः न इतरस्य. अत्र शब्दस्य विषये अन्यविषयः इति इत्युक्ते अत्र ग्राहकस्य श्रोत्रेन्द्रियस्य गुणः एव शब्दः इति अत्र अस्ति. इत्युक्ते यः शृणोति तस्य श्रोत्रेन्द्रियस्य गुणः एव शब्दः इति. रसनादौ तु ग्राहकं रसना न तद्
महोदय श्रोत्रेन्द्रियस्य गुणः एव शब्दः इति वैशिष्ट्यम् अत्र किमर्थं वैशिष्ट्यं तद् वैशिष्ट्यम् अस्ति शब्दविषये?
अत्र पूर्वं यदा वयं दृष्टवन्तः पुष्पस्य गन्धः ग्राणेन्द्रियं प्रति कस्मिन् द्वारा गच्छति इति, अन्यक्रियया गच्छति इति, परन्तु अत्र शब्दस्थले तादृशक्रिया न भवति, अतः तत्र विशेषः अन्यविशेषः अस्ति. अतः
अस्तु, अत्र विषयद्वयम् अस्ति. यत् राजेन्द्रमहोदयेन उक्तं पूर्वस्मिन् परिच्छेदे, क्रिया न भवति शब्दविषये, न तु इन्द्रियस्य गमनं वा द्रव्यस्य गमनम् इति. इत्युक्ते शब्दाश्रयः यः आकाशः तस्मिन्नपि क्रिया न भवति इति, परन्तु अत्र अन्यविशेषः अस्ति अस्मिन् परिच्छेदे. किम् अस्ति
तत्? तदस्ति अत्र अस्मिन् वाक्ये वा अथवा अग्रे पठामि वा? अत्र
न, अत्र अस्तु, अग्रे पठतु महोदय.
अत्र रसनादौ तु ग्राहकं रसना न तद्गुणः माधुर्यं, किन्तु गुडस्य गुणः. अत्र रसनादिविषये अत्र ग्राहकमस्ति रसना, तस्य गुणः अस्ति माधुर्यं, कुडस्य गुणः अस्ति अस्ति माधुर्यम्.
एकनिमिषं, कस्य कस्य गुणः अस्ति माधुर्यम्?
गुडस्य गुणः.
गुडस्य गुणः ग्राहकं रसना न तद्गुणः माधुर्यम् इत्युक्ते किम्?
अत्र यत्र ग्रहणं करोति तत् सः ग्राहकम् इति किल.
तर्हि ग्राहकस्य गुणः माधुर्यं नास्ति इति.
ग्राहकस्य गुणः नास्ति परन्तु गुडस्य गुणः एव माधुर्यम्.
अतः गुडस्य गुणं गुडस्य गुणम् एव गृह्णाति रसनेन्द्रियम् इत्युक्ते अन्य अन्यद्रव्यस्य गुणं गृह्णाति न तु स्वस्य गुणं, खलु?
आम् आम्.
अग्रे
अग्रे इह ग्राहकः आकाशः श्रोत्रावच्छिन्नः आश्रयोऽपि च आकाशः. अत्र तादृशरीत्या अत्र पूर्वोक्तरीत्या यः ग्राहकः आकाशः अत्र श्रोत्रमेव ग्रहणं करोति तत्र श्रोत्रस्य आश्रयः अपि आकाशः भवति. यदा गुडस्य गुणः माधुर्यमस्ति तद् रसना ग्राहणं करोति ग्रहणं करोति तादृशं श्रोत्रस्य श्रोत्रमपि आकाशः स्वीकरोति अथवा आकाशे शब्दः अस्ति इति.
पुनः महोदय अत्र अत्र ग्राहकः कः? इह ग्राहकः इत्युक्ते किम्?
अत्र ग्राहकः आकाशः शब्दविषये.
ग्राहकः आकाशः वा?
श्रोत्रेन्द्रियः.
श्रोत्रेन्द्रियं खलु? श्रोत्रेन्द्रियम् आकाशीयः अस्ति परन्तु ग्राहकः तु श्रोत्रेन्द्रियमेव. ग्राहकः आकाशः श्रोत्रा अवच्छिन्नः आश्रयो अपि च आकाशः इत्युक्ते शब्दस्य आश्रयः अपि आकाशः इति. अग्रे
तस्य निष्क्रियत्वात् न तदागमनं श्रोत्रद्रेशे देशे सम्भवति. तत्र आकाशे निष्क्रियत्वम् अस्ति चेदपि अत्र अत्र श्रोत्रदेशे शब्दस्य आगमनं न भवति इति. अतः अत्र कश्चन उपायः वैशेषिकैः कल्पितः. अत्र शब्दस्य विषये वैशेषिकैः नूतन उपायः कल्पितः. सः एव शब्दज शब्दः इति उच्यते. अतः तस्य नाम अस्ति शब्दज शब्दः इति. एतावता निरूपितं विषयं चित्रद्वारा पश्यामः. अत्र सः अस्ति.
समीचीनम्. अत्र मूलविषयः अस्ति, अत्र किञ्चित् भिन्नः अस्ति विषयः. कथं श्रोत्रेन्द्रियं शब्दं गृह्णाति इति. स्वस्य गुणः एव श्रोतेन्द्रियम् आकाशीय अस्ति. आकाशस्य गुणः तु शब्दः. तर्हि स्वस्य गुणं कथं गृह्णाति इति विषयः. अस्तु अग्रे शुकवन महोदय किञ्चित् चित्रस्य वर्णनं करोति वा?
घटप्रत्यक्षं संयोगेन रूपक्रियाघटत्वानां प्रत्यक्षं स्वसंयुक्तसमवायेन. इति तत्र घटप्रत्यक्षं संयोगेन इत्युक्ते चक्षुरिन्द्रियं बहिः गत्वा तैजसम् इति कृत्वा बहिः गत्वा घटेन संयुक्तः भवति तेन प्रत्यक्षं जनयति इति कृत्वा घटस्य प्रत्यक्षं संयोगेन भवति किन्तु घटे वर्तमानं रूपं वा क्रिया वा जातिः घटत्वजातिः वा तस्य प्रत्यक्षं स्वसंयुक्तसमवायेन एव स्वसंयुक्तसमवायसम्बन्धेन एव तस्य प्रत्यक्षं भवति अत्र स्वम् इति अत्र स्वम् इति चक्षुरिन्द्रियं चक्षुरिन्द्रियं चक्षुरिन्द्रियस्य संयोगः कुत्र भवति इत्युक्ते द्रव्ये भवति घटे भवति रूपक्रिया अपि च जातिः घटत्वम् इति जातिः घटे समवायसम्बन्धेन वर्तते इति कृत्वा स्वसंयुक्तसमवायसम्बन्धेन चक्षुरिन्द्रियं रूपक्रिया घटत्वानां प्रत्यक्षं जनयति
समीचीनं बहु समीचीनं अग्रे वर्धिनी भगिनि रसनेन्द्रियविषये
रसनेन्द्रियं न द्रव्यग्राहकम् अतः गुडः तेन न गृह्यते रसस्य प्रत्यक्षं स्वसंयुक्तसमवायेन अत्र रसनेन्द्रियं जिह्वा अस्ति संयोग
जिह्वायाम् अस्ति रसनेन्द्रियं
जिह्वायाम् अस्ति गुडः संयोगसम्बन्धेन रसनेन्द्रियं रसनेन्द्रिये अस्ति समवायसम्बन्ध गुडः समवाय माधुर्यं समवायसम्बन्धेन सन्ति
गुडे अस्ति
रसस्य प्रत्यक्षं स्वसंयुक्तसमवायेन अत्र गुडः तेन न गृह्य तत्र ज्ञानं भवति रसस्य प्रत्यक्षं स्वसंयुक्तसमवायेन
स्वम् इत्युक्ते अत्र किम् अस्ति स्वम्
ओ स्वसंयुक्तसमवायेन
स्वम् इत्युक्ते
रसस्य
स्वम् इत्युक्ते इन्द्रियं खलु रसनेन्द्रियं
रसनेन्द्रियं
तेन संयुक्तः किं कः
रसनेन्द्रिय प्रश्नः कः रसस्य प्रत्यक्षं
तेन रसनेन्द्रियेण संयुक्तः कः
रसनेन्द्रियेण संयुक्तः गुडः
गुडः
गुडः समवायसम्बन्धेन समवायसम्बन्धेन माधुर्ये अस्ति माधुर्यं गुडे अस्ति
माधुर्यं समवायसम्बन्धेन गुडे अस्ति अतः तर्हि रसस्य प्रत्यक्षं वा माधुर्यस्य प्रत्यक्षं कथं भवति स्वसंयुक्तसमवायेन भवति
संयुक्तसमवायेन
समीचीनम् अग्रे पुष्पा भगिनी प्रयत्नं करोति वा
करोमि भगिनि घ्राणेन्द्रियम् अपि न द्रव्यग्राहकम् अतः पुष्पं तत्कणाः वा न घ्राणेन्द्रियेण गृह्यन्ते
चित्रस्य वर्णनं
कणा पुष्पकणास्य संयोग ग्राणेन्द्रियं नासिकायाम्
अस्ति
ग्राणेन्द्रियं गन्धस्य प्रत्यक्षम् अस्ति न
गन्धस्य प्रत्यक्षं करोति अस्तु सरला भगिनी किञ्चित् सहायं करोति वा कथं प्रत्यक्षं जायते गन्धस्य प्रत्यक्षं
नासिकायां घ्राणेन्द्रियं तिष्ठति तस्य संयोगः भवति पुष्पकणैः पुष्पकणे पार्थिव द्रव्यम् अस्ति तस्मिन् विद्यमान गन्ध समवायसम्बन्धेन तिष्ठति अत्र घ्राणेन्द्रियस्वं संयुक्त पुष्पकणैः समवायेन गन्धं प्रत्यक्षं जानाति प्रत्यक्षं करोति
अस्तु समीचीनम् अस्तु तर्हि चक्षुरिन्द्रियम् अपि तु त्वगिन्द्रियम् घटस्य रूपं क्रिया घटत्वं गृह्णाति चक्षुरिन्द्रियम् अपि तु घटं त्वगिन्द्रियम् समीचीनं द्रव्यमपि गृह्णाति आश्रय तदाश्रयमपि गृह्णाति गुणमपि गृह्णाति अस्तु वर्गे प्रश्नः आसीत् खलु कथं गुडस्य गुडं जिह्वा कथं गुडं न गृह्णाति इति रसनेन्द्रियं केवलं रसं गृह्णाति वा किमर्थं गुडं न इति खलु तस्य उत्तरं किम्
रसेन्द्रियं द्रव्यस्य गुण गृह्णाति न तु द्रव्यम् यदि एकवारं तस्य गुणस्य स्मरणं प्रथमं तस्य ग्रहणं भवति तस्य स्मरणं भवति तदनन्तरं अनुमानेन उक्तं शक्नोति एतत् द्रव्यगुण अस्ति वा शाकरम् अस्ति वा लड्डु अस्ति किमपि
परन्तु प्रत्यक्षज्ञानं न खलु प्रायः अनुमतिज्ञानं जायते परन्तु अत्र तु प्रत्यक्षज्ञानविषयः एव चर्च्यते खलु इन्द्रियाणां प्राप्यकारित्वं तु प्रत्यक्षज्ञानविषयः अस्ति न तु अनुमानज्ञानं यथा भवत्या उक्तं रसनेन्द्रियं तु केवलं रसं गृह्णाति न तु रसस्य आश्रयः वा गुणम् अस्तु तर्हि प्रश्न अस्ति चेत् पृच्छन्तु नो चेत् विरमामः
अस्तु भगिनि
धन्यवादः भगिनि
अस्तु
नववादने
प्रायः सर्वे उत्तरयन्ति यत् नववादने सौकर्यम् अस्ति इति अहम् ई पत्रं प्रेषयामि
अस्तु अस्तु
अस्तु धन्यवादः नमस्ते